इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्दझाः। अथ वार्ताः। रक्षाधिग्रहण परिषत् द्विसप्तत्यधिकसप्तशतोत्तरैकविंशतिसहस्रकोट्यधिकरूप्यकाणां पञ्चभ्यः प्रस्तावेभ्यः अनुमोदनम् अकरोत्। नवदिल्ल्यां रक्षामन्त्रिणः राजनाथसिंहस्य अध्यक्षतायां परिषद् नौसेनायै नूतनानाम् एकत्रिंशत्संख्याकानां वाटरजेट् फास्ट् अटैक् क्राफ्ट् इति जलीयद्रुतप्रहारयानानां क्रयणाय अनुमोदितवती। लोकसभा ह्यः 24,000-2,000 बैंकीय विधि संशोधन विधेयकं पारितवती। एतद् विधेयकस्य अन्तर्गतं 34,000-9,000 भारतीय रिजर्व बैंकाधिनियमस्य 49,000-9,000 बैंकीय नियमनाधिनियमस्य 55,000-9,000 भारतीय राज्य बैंकाधिनियमस्य एतत्सदृश विभिन्नानाम् अधिनियमानां च संशोधनस्य प्रावधानं कृतमस्ति। अनेन पदक्षेपेण प्रत्येक बैंक लेखायां उत्तराधिकारिणां संख्या एकतः वर्धित्वा चत्वारि भवितुम् अर्हति। विधेयकमेतत् लेखा परीक्षकाणां पारिश्रमिक विषयकं निर्णयं कर्तुं बैंकेभ्यः अधिकारान् अपि प्रदास्यति। विधेयकं प्रस्तूय वित्तमन्त्री निर्मला सीतारमणः अवदत् यत् प्रस्तावितेन संशोधनेन बैंकीय क्षेत्रे संचालनं सुदृढं भविष्यति, ग्राहक सुविधाः च वर्धिष्यन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः चण्डीगढे नूतनाः आपराधिक विधयः राष्ट्राय समर्पिताः। अस्मिन् अवसरे केन्द्रीयः गृहमन्त्री सहकारिता मन्त्री च अमितशाहः अपि उपस्थितः आसीत्। आयोजनं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् नूतनानाम् आपराधिक विधीनां कार्यान्वयनम् अस्माकं संविधानेन अस्माकं देशस्य नागरिकाणां कृते ये आदर्शाः परिकल्पिताः तेषां पूर्तये दृढपदं वर्तते। प्रधानमन्त्रिणा उक्तं यत् एते नूतनाः विधयः भारतम् औपनिवेशिक विधिविचारेभ्यः मुक्तं करिष्यन्ति। चण्डीगढे नूतनापराधिक विधीनां सफल कार्यान्वयनार्थं प्रधानमन्त्रिणा पंजाब हरियाणोच्च न्यायालयस्य विधिवेत्तारः चण्डीगढ न्यायालयस्य सदस्याः च अभिनन्दिताः। अस्मिन् अवसरे केन्द्रीयः गृहमन्त्री अमितशाहः अवदत् यत् त्रयः नूतनाः आपराधिक विधयः सम्पूर्णे देशे वर्षत्रयाभ्यन्तरे कार्यान्विताः भविष्यन्ति। राष्ट्रपतिः द्रौपदी मुर्मुः गतसायं पञ्चदिवसीय यात्रा प्रसंगे स्वकीयं गृहराज्यं ओडिशां प्राप्तवती। भुवनेश्वरे राज्यपालेन रघुवर दासेन मुख्यमन्त्रिणा मोहन चरण माझिना अन्यैः वरिष्ठैः गणमान्यैः च जनैः तस्याः स्वागतं कृतम्। राष्ट्रपतिः अद्य पुरी नगर्यां ब्लू फ्लैग समुद्रतटे भारतीय नौसेना दिवस समारोहस्य अन्येषु च कार्यक्रमेषु सहभागं करिष्यति। भारतीयान्तरिक्षानुसन्धान संघटनम् इसरो इत्येतत् अद्य अपराह्णे 8:04 श्रीहरिकोटायाः सतीश धवनान्तरिक्ष केन्द्रात् PSLV-C59 Proba-3 इत्येतस्य प्रक्षेपणं करिष्यति। यूरोपीयान्तरिक्ष संस्थायाः प्रोबा-3 प्रक्षेपणोपक्रमः भारतीयान्तरिक्षानुसन्धान संघटनस्य न्यू स्पेस इण्डिया लिमिटेड इत्येतस्याः वाणिज्यिक शाखायाः सहयोगेन भवति। सामाजिक न्यायाधिकारिता मन्त्री डॉ वीरेन्द्र कुमारः ह्यः नवदिल्ल्याम् अन्ताराष्ट्रिय दिव्यांगजन दिवसस्य अवसरे अशेष देशे दिव्यांगान् शक्तान् विधातुं 16 पदक्रमान् आरब्धवान्। अत्रावसरे श्रीमता सिंहेन उक्तं यत् अयं प्रयासः समग्र समाज निर्माणस्य दिशि सर्वकारस्य दृढ संकल्पं दर्शयति। झारखण्डे हेमन्त सोरेन प्रशासनस्य मन्त्रिमण्डलस्य शपथग्रहण समारोहः दिसम्बर मासस्य 5 दिनांके गुरुवासरे भविष्यति। राज्यपालेन संतोष कुमार गंगवारेण राजभवने मन्त्रिणः पदगोपनीयतायै शपथं ग्राहयिष्यन्ते।